are in listen-only mode.
हरि ओम सर्वेभ्यः नमस्काराः अद्य सिद्धान्तकौमुद्याः अनन्तपुलिङ्गप्रकरणे पञ्चमः पाठः आगस्ट् मासस्य एकोनत्रिंशः दिनाङ्कः केनाक्षरतमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. सो वि स्टार्ट् सिन्स् ऐ डि नाट् हाव् एन् इण्टर्नेट् कनेक्षन् टुडे रविचन्द्रन् जी इस् हेण्ड्लिङ्ग् द प्रेसेण्टेशन् एण्ड् विजुवल् पार्ट् आफ़् इट् and I'm connected only through the audio part of it. So if anybody has any questions, I mean, whenever I give a break, you can just raise your hands and Ravi Chandranji will unmute you. Similarly, if you'd like to type in your questions, please send in the questions to the organizer, the AVG organizer for the center. So he'll read out the question and then I can answer the question. Mahan Kalahari. अतीतः तदनन्तरम् इदं शब्दः मकारान् हलन्तपुल्लिङ्गेषु मकारान्ताः पुल्लिङ्गाः अधीयन्ते. यत्र इदं शब्दः अधीतः दट् वास् द लास्ट् थिङ्ग् वी डिड्. अयम् इमौ इमे इत्यादीनि रूपाणि तत्र प्रमुखानि सूत्राणि कानि इति तौ परे उत्प्रत्यये परे इदमो मह इत्यनेन मकारस्य स्थाने मकारादेशो विधीयते. ततः इदोय् पुंसि इति सूत्रेण इद् इत्यस्य स्थाने अय् इत्यादेशो भवति. तेन अयं सुप्रत्ययस्य हल्यांशदीर्घः इत्यनेन लोपे अयम् इति रूपम्. अन्यत् तु सर्वासु विभक्तिषु यदादीनामः इत्यनेन मकारस्य स्थाने अकारादेशो भवति. फस्ट् इदमोमः इति सूत्रं यदादीनामः इति विहितस्य अकारस्य बाधनार्थं मकारस्य स्थाने मकार एव विधीयते. अन्यासु सर्वासु विभक्तिषु इदम् औ इति उच्यते मकारस्य स्थाने अकारादेशो भवति. अतोगुण इत्यनेन पररूपे इद इति अकारान्तं प्रातिपदिकं भवति. इद औ इत्युक्ते वृद्धौ इदौ इति भवति. तदानीं दश्च इत्यनेन दकारस्य स्थाने मकारादेशो भवति. मकारादेशे कृते इमौ रूपम् एवमेव इमे अयम् इमौ इमे इमम् इमौ इमान् सर्वत्र अयम् इति रूपं ज्ञातम्. अन्यत्र सर्वत्र यदादीनामः इति अकारः अन्तादेशः दश्च इत्यनेन दकारस्य मकारादेशो भवति. द्वितीयाविभक्तितः आरभ्य पुनः विशिष्टं कार्यमस्ति. अजादिषु प्रत्ययेषु अनाप्यकः इत्यनेन इद् इत्यस्य स्थाने अन् इति आदेशो भवति. उदाहरणार्थं तृतीयायाम् आ सा इत्यस्ति जराद्यस्य कृते इद आ तायाः तामसिनसामिनास्याः इत्यनेन इन आदेशः इद इन इदेन यथा रामेण तथा इदेन इत्यस्य कृते इद् इत्यस्य स्थाने अन् इत्यादेशः अनेन इति भवति. एवमेव ओत् प्रत्यये परे इद ओत् एत्रे ओसि चेत् एत्रे कृते इदे ओत् इदयोत् इति भवति. ततः अनादेशे कृते अनयोः अनेन अनयोः एतौ द्वावेव प्रत्ययौ यत्र अजादित्वं भवति. अन्यत्र सर्वत्र उदाहरणार्थं ये ङसि इत्यत्र सर्वत्र स्मायादेशो भवति स्मादादेशो भवति. सो फैनलि वि डु नाट् हेव् एनी अदर् अजादि प्रत्यय इन् द इण्टर् सेट् दो दार्टिङ्ग् फ्रम् तृतीय वेनेवर् दर् इस् एन् अजादि प्रत्यय दर् शुड् बि अनादेश वि इफेक्टिव्लि विट् ओन्ली टु अजादि प्रत्यय वन् इस् टा अण्ड् अदर् इस् ओस् In all other cases, even though the original pratyaya may be agadi, there is some adesha which will convert it to halani. Halado kim bhavati, haladishu pratyayeshu halilopaha istamena idu ityasya lopo bhavati. Udaharanartham ida dhyam ityasya idu ityasya lope abhyam upichayatatitya abhyam. Evameva sarvatra kevalam akara shishyate. There is only akara left in the idu part of it gets deleted whenever the pratyaya is halani. That's why you have asmai, asmat, asmin, etc. So everywhere the a remains and the rest is deleted. So that is the rupa for idam shabda. Kevalasya idam shabdasya etani rupani. Are there any questions about just idam? So we are moving on to other parts of idam. So if you are not clear with idam, it's better to get it clarified now. ततः किम् उच्यते इति चेत् इदं शब्दस्य अकदादेशे कृते किं रूपम् इति प्रश्नः. यथा मया उक्तं नेक्स्ट् स्लैड् अव्ययसर्वनाम्नाम् अकच् प्राक्तेः इति उक्तं. तेन सर्वेषां सर्वनामशब्दानां स्वार्थे अकच् इति प्रत्ययः विधीयते. अकच् विल् नाट् चेञ्ज् द मीनिङ्ग् आफ् द वर्ड्. It will just add a kakara to it. For example, sarva ityasya, sarvaka iti bhavati. Sarvaha ityasya, sarvakaha ityasya. So, arthaha samanaya. Svarthe akach pratyaha bhavati, sarvesham sarvanama padana. Idanim, idam shabdasya akach pratyaya krate, kim bhavati iti prashna. Kimartham prashnaha iti chete. यानि सूत्राणि सन्ति अथवा सूत्रद्वयमस्ति अनाप्यकः इत्यस्ति हलिलोपः इत्यस्ति. प्रीवियस् लैट् द्वितीया विभक्तितः आरभ्य अजादिषु विभक्तेषु अन इति आदेशो अन् इति आदेशो भवति. हलादिषु विभक्तिषु लोपो भवति. उभयत्र अकः इत्यस्ति अन अन् आपि अकः. आपि इत्यस्य आ इत्यतः आरभ्य पर्यन्तं प्रत्याहारः. द्वितीयादिषु विभक्तिषु अनादेशो भवति. अकः नाम अककारस्य इदमः इत्यर्थः लिखितः. यत्र इदं शब्दे ककारः नास्ति अककारस्य इदमः. एवं हलिलोपः इत्यत्रापि स एव अकः इति अनुवर्तते. तेन अककारस्य इदं शब्दस्य ककारयोगे तु अयकम् इमकौ इमके इति लिखितैः. कथं ककारयोगः? अकत् प्रत्यये कृते तत्र ककारः श्रूयते. प्रक्रिया तु तत्र अस्ति. इदम् इति शब्दः इदम् इति प्रातिपदिकं. प्रातिपदिकस्यैव अकच् इति प्रत्ययः प्राक् टेः टेः प्राक् भवति अकच्. तत्र टि नाम अचोन्त्यानि टि अन्त्यादतः परः. अम् इत्यस्य टि संज्ञा अस्ति. टेः प्राक् अकच् अकच् इत्यत्र चकारस्य अकारस्य च इत्संज्ञा अस्ति. केवलम् अक् इति शिष्यते. इद् अक् अम् इदकम् इति नूतनं प्रातिपदिकम्. The original Pratipadika was idam, the new Pratipadika is idakam. Tasyapi idam ityasyah arthah sa eva arthah. Idakam ityasmat supratyaye krute supratyah idamo maha ityanena makarasya sthane makaradeshah idoikumti ayakam soholopah ayakam. In the first two vibhaktis there is no difference. And you should remember that the difference comes only after tritiya. Anapyakaha halilopaha. They are the only two sutras which have this particular condition saying akaha, akakarasya. So initially there is no difference. Just like ayam, you add a kakara, you get ayakam. So, next slide. Evameva imakau, imau iti asti. Ayam, imau, ime. It becomes ayakam, imakau, imake. You add a kakara. Idakam, au. यदादीनामः अथवा गुणे इदक औ दश्च इत्यनेन दकारस्य स्थाने मकारादेशे इमक औ सुद्धिरेति इति वृद्धौ इमकौ अयकम् इमकौ इमके इमकम् इमकौ इमकान् प्रथमा विभक्तौ वा द्वितीया विभक्तौ वा व्यत्ययः नास्ति किन्तु तृतीयातः आरभ्य इमकेन इमकाभ्याम् इत्यादि वेर् यु हेड् अनेन आभ्याम् इत्यत्र इफ् यु हेड् इफ् अनार्थकः आर् हलिलोपः वुड् अप्लै यु शुड् गेट् अनकेन अनकेन अकाभ्याम् इत्यत्र बट् बोत् दोस् सूत्रस् विल् नाट् अप्लै सो यु जस्ट् हेव् इदकम् अस्य प्रातिपदिका सो इदकम् इत्यस्य तिराद्यत्रेकते इदक इन इदकेन इति भवति दश्च इत्यनेन दकारस्य मकारादेशे कृते इमकेन एवम् इमक् इदकभ्यां सकारस्य मकारादेशः सुपित इति दीर्घः इमकाभ्याम् एव्रिवेर् यु हियर् दिस् इमक ओके इदक इस् द प्रातिपदिका दकारस्य सर्वासु विभक्तिषु दश्च इत्यनेन दकारस्य मकारादेशे कृते इमकेन इमकाभ्याम् इमकैः इमकस्मै इमकाभ्याम् इमकेभ्यः सो एव्रिवेर् यु हाव् ओन्ली दश्च अप्लै अनाप्यकः विल् नाट् अप्लै हलिलोपः आल्सो विल् नाट् अप्लै सो दट् इस् द डिफ़रेन्स् बिट्वीन् प्लेन् इदं शब्द एण्ड् द अकच् पार्ट् आफ़् इट् जनरलि द प्लेन् शब्द एण्ड् अकच् पार्ट् विल् नाट् हेव् अ डिफ़रेन्स् बिकास् एनी कार्य विच् विल् अप्लै फार् The original Shabda will also apply for the Akajanta of it. But in this case, since it was specifically mentioned, Akakarasya, Anasyakaha Halilopaha Ityeta Sutra Dvayam, Akaj Sahitasya, Idam Shabda Sivishayam, Naptava Pate. Okay. Next slide. इदमोन्वादेशे अनुनार्थस्थिति अदौ इति अग्रिमं सूत्रं फिल् वित् इदं शब्द एण्ड् देर् इस् अ न्यू कान्सेप्ट् विट् इस् बीङ्ग् इन्ट्रोड्यूस् काल्ड् अन्वादेशम् ऐ थिङ्क् यु शुड् गो टु द नेक्स्ट् सूत्र एण्ड् कम् बेक् बिकास् दिस् सूत्र विल् बि क्लियरर् आफ्टर् वी सी द नेक्स्ट् सूत्र बट् यु केन् गो टु द नेक्स्ट् स्लैड् प्लीस् वेरि प्रेसेण्ट् द सिक्स्त् स्लैड् द्वितीयात् सूत्रं पदद्वयमस्ति द्वितीया ता ओस्तु एनः इति छेदः पूर्वसूत्रात् इदमोन्वादेशे शरणार्थस्तुति अदौ इत्यतः इदमः इति अनुवर्तते अन्वादेशे इत्यपि अनुवर्तते एतदस्तु रसोऽस्तु रसौ च अदौ इत्यतः एतदः इति अनुवर्तते द्वितीयायां ता ओसुः च परतः द्वितीया ता ओस्तु इति तप्तमे विभक्ति सो वेन् फालोड् बै द्वितीया विभक्ति आर् ता आर् ओस् वेन् फालोड् बै एनी आफ् दीस् प्रत्यय इदम् एतदोः इदमः इति अनुवर्तते एतदः इत्यपि अनुवर्तते फर् द वर्ड् इदम् एण्ड् एतत् एन इति आदेशः स्यात् एनः इत्युक्ते एन इति आदेशो भवति अन्वादेशे Then it is a case of anvadesha. It says when it is a case of anvadesha, in Dvitiya Vibhakti, ta and os, idam is replaced by ena. The question is anvadesha namakaha. It is prashna. What is anvadesha? So Dikshitar himself explains, incit karyam vidhatum upasthasya, karyantaram vidhatum punaha upadanam anvadesha. इदं शब्दः सर्वनामशब्दः बोत् इदम् अण्ड् एतत् दे आर् प्रोनौन् विच् मीन्स् दे आर् यूस् टु इण्डिकेट् अ पर्सन् इनिशियलि यु टेक् अप् अ प्रोनौन् टु इण्डिकेट् अ पर्सन् फार् संथिङ्ग् किञ्चित् कार्यं विधातुम् उदाहरणं लेट्स् सी द एक्साम्पल् देन् ओन्ली इट् विल् बि क्लियर् यथा अनेन व्याकरणम् अधीतम् पायिण्टिङ्ग् टु सम्बडि अनेन व्याकरणम् अधीतम् He has studied Vyakarana. Enam Chandaha Adhyapaya. The same person is being indicated again. Inchit Karyam Vidhatum Upatpatya कार्यांतरं विधातुं पुनः उपादानम् they indicated a person in the first sentence for something always every sentence will have a kriya so kinchit karyam vidhatum kastit upasah so you are saying anena vyakaranam adhitam you are using that idam shabda anena iti to indicate that he has studied vyakarana kinchit karyam vidhatum upasah karyantaram vidhatum punah upadanam now you want to say your the speaker is telling enam chandah adhyapaya teaching chanda shastra he has already studied vyakarana teaching chanda so you should remember in anvadesha there are always two sentences you have already taken up the pronoun in the first sentence for something again you are using the pronoun to indicate the same person for a different karya karyantaram vidhatum punah upadanam and this is called anvadesha You've already used a pronoun. The second usage of a pronoun is generally called anvadesha. Anena vyakaranam adhitam enam chandodhyapaya. It has not imam. Right? Idam shabdasya dityayavakta kim rupam. Imam iti rupam. So imam iti noktam enam chandodhyapaya. That's the enadesha. If you look at the shabdamanjari, I am imau ime, imam enam, imau enau, ime ene. इति सॉरी इमान एनान इति रूपद्वयम् दृश्यते टू फॉर्म्स गिवन सो एनीथिंग विल ऑलवेज हैव दोस टू फॉर्म्स इन द टू फॉर्म्स द फर्स्ट फॉर्म इज जनरली यूज्ड द सेकंड फॉर्म इज फॉर अन्वादेश दैट इज व्हेन यू आर यूजिंग द प्रोनाउन अ सेकंड टाइम सिमिलरली अनयोः पवित्रं कुलम् एनयोः प्रभूतं त्वम् सो देयर आर टू Just to indicate the oath. Anayohu pavitram kulam, enayohu prabhutam svam. So in both cases they don't use anayohu, they always use enayohu. And if you notice that this karya vikalpaha nasti. Vikalpaha nasti ataha sarvada etadrisheshvam darteshu anvadeshasya yadrupam tadeva rupam vastutaha prayoktavyam. Asmavihi ज्ञानम विना कदाचित न प्रयुज्य प्रयुज्यते किंतु शास्त्रेषु यदा दृश्यते सो दे फॉलो दिस रूल वेरी कंसिस्टेंटली जनरली व्हेन इट्स एन अन्वादेश दे फॉलो द एन फॉर्म ऑफ इट फॉर बोथ इदम एंड एतत् इदम शब्द एंड एतत् शब्द देयर आल्सो इट इज एकम एनम एतौ एनौ एतान एनान अत्रापि इदम् एनम् इमौ एनौ इमान् एनान् सो नौ दट् इस् अन्वादेश टु लुक् एट् द फार्म् एक्स्प्लेन् इदम् इत्यस्मात् अम् प्रत्ययः भवति द्वितीयविभक्तौ परतः इदम् द एण्टैर् इदम् इस् रिप्लेस्ड् बै एन इत्यादेशः एन अम् अमिपूर्वः इत्यनेन पूर्वरूपे कृते एनम् एवम् एनम् एनौ एनान् इन् आल् दीस् यु हव् एन अम् एन औ वृद्धौ कृतायाम् एनौ एन अस् इत्यस्ति तस्मयोः पूर्वसवर्णः तस्मात् सवर्णः पुंसि एनान् तृतीया द्वितीया टा ओस्तु तृतीयायां टा विभक्तौ टाङ्गस्मिनाः जनेन एनादेशे कृते एनेन एवमेव ओति एनयोः So these five are the what anvadesha forms for idam shabda. Okay. Any question? So if we go back to the fifth slide. इदमोन्मादेशे अश् अनुदात्तस्तृतीयादौ इति सूत्रं सो दिस् इस् फस्ट् सूत्र विच् डील्स् वित् अन्वादेश पञ्चपदानि सन्ति इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति पञ्चपदानि सन्ति चतुर्थः अन्वादेशविषयस्य इदमः सो वि आल्रेडि नो वाट् इस् अन्वादेश अन्वादेशविषयस्य इदमः अनुदात्तः अशादेशः स्यात् तृतीयादौ अश् इति आदेशो भवति तृतीयादौ इन् आल् विभक्तिस् बिगिनिङ्ग् वित् तृतीया एण्ड् दट् अश् हेपन्स् टु बि अनुदात्त अन्वादेशविषयस्य इदमः अनुदात्तः अशादेशः स्यात् तृतीयादौ इन् आल् विभक्तिस् तृतीया एक्सेप्ट् ता एण्ड् ओट् ता प्रत्ययपरे ओट् प्रत्ययपरे विशेषतः एनादेशः विहितः द्वितीया तौत्वेनः अतः हलादिषु विभक्तिषु इवन् दो द सूत्रा डस् नाट् मेन्शन् हलादि the by in effect it will be haladi because adarishu vibhaktishu ta prateye ostateye tare adhima sutrena dvitiya sautsvena iti sutrena enadeshah vidhiyate enadeshah vidhiyate tatah tatra asya sutrasya pravartihina bhavati anyatra asthate hala already we saw that they ta and o are the only two adari pratyayas which we encounter in idam shabda samsutiya in all other vibhaktis, that is the halado vibhakto, ash iti adeshtha bhavati. Kimartham ayam idam sutram iti prashnaha. Yataha, idanim idam iti shabdaha iti. Terali namaha iti adhikarvam kriyata. Ida bhyam iti. Kevalutte idam shabdaste kim bhavati. Ida bhyam iti. अभ्याम् हरिलोपः इत्यनेन इद् इत्यस्य लोपे कृते अभ्याम् अकारः एव शिष्यते तस्य कृते इति दीर्घे आभ्याम् एभिः अस्मै इत्यादि भवति अश् आदेशे कृते किं भवति अश् आदेशः नाम कः अश् इस् नथिङ्ग् बट् अन् अकारादेश रिप्लेसिङ्ग् इदं वित् अ वेदर् यु डु हरिलोपः आर् यु डु अश् आदेश effectively there is only akara there right alilopah iti krute api akara bhavati atmai atmar iti bhavati ashadeshe krute api akara eva bhavati ashityatva shakara is anekalshit sarvasya kalena sarvadesho bhavati atmai atmar iti rupam samanam whether you apply halilopah or you do ashadesha rupa is still the same so why are you going to the trouble of doing this अश् आदेश अत एव दीक्षितैः उच्यते अश्वसनम् आकत्स्कार्थं स अकत्क अकत्सहितस्यापि अशादेशो भवति नो हिट् प्लेन् इदं शब्द हलिलोपः इत्यनेन लोपे अकारः शिष्यते तेन यद्रूपम् इष्यते अस्मै अस्माताभ्याम् इत्यादि तत् सिद्ध्यति किन्तु पाकत्कस्य अकत्सहितस्य इदं शब्दस्य किं भवति इमकेन इमकाभ्याम् इमकैः तत्र हलिलोपः इति सूत्रस्य प्रवृत्तिः नास्ति अकः अककारस्य इदमः इति उक्तत्वात् पाकत्कस्य इदं शब्दस्य हलिलोपः इति न भवति तेन यु विल् हेव् इमकाभ्याम् एण्ड् नाट् आभ्याम् फार् इवन् वेन् इट् हेस् अकच् इट् हेस् टु बि एण्टैर्लि रीप्लेस् बै अकार विच् मीन्स् अकत्सहितस्य अन्वादेशेपि किं रूपं भवति अकत्सहितस्य अन्वादेशे इति आभ्याम् एभिः अस्मै इत्यादीनि रूपाणि भवन्ति तदर्थमेव तदर्थमेव अशादेशः अश्वतनं पाकत्कार्थं बट् प्लेन् इदं शब्द even without doing ashadesha you will get the same form I mean whether you do ash or not you get the same form but for akat sahitasya idam shabdasya anvadeshe abhyam ethi atmai iti rupam prathama varam upasthasya tu imakya abhyam imakaihi imakatmai ityadi rupani so that is why he says ashvatanam pakatkartham पाकत्कस्य इदं शब्दस्य तृतीयादिषु विभक्तिषु अश् इत्यादेशो भवति अन्नादेशविषये अशादेशे कृते आभ्यामेभिः अस्मै इत्यादि इदं शब्दवत् रूपाणि सो द फार्म्स् विल् बि जस्ट् लैक् यु हेड् इदम् फार् इदकं फार् द अकत् पार्ट् आफ् इदम् फार् द अकत् अन्त आफ् इदं द ओरिजिनल् फार्म् इस् इमकेन इमकाभ्याम् इमकैः अन्वादेशे तु अनेन आभ्याम् एभिः इत्यादीनि रूपाणि भवन्ति अकत् रहितस्य इदं शब्दस्य अशादेशं विनापि एतानि रूपाणि सिद्ध्यन्ति So even without Ashadesha, the forms are the same, which means for just Idam Shabda, whether it is the first time taking up the pronoun or Anvadesha, the forms are same in Halagi. It has varying Anvadesha forms only in Dvitiya, Sa and Oth. For the Akat part of it, it is a different form in all cases of Anvadesha. Now, if we go to slide 8, sorry, I'm not doing it in order, but because Dvitiya Tavasvenaha, Idam Anvadesha will not make sense. This is why. So, slide 8, Makarantaha Pullingaha Idam Shabdaha. Yatha Drishyate. Imam enam, imau enau, iman enan, anena enena, anayohu enayohu. Idam shabdasya anvadeshe, dvitiya vibhaktau, ta os, iteta yoshta parayohu. So when followed by either dvitiya vibhakti, ta or os, enadeshaha bhavati. Anyatra, asthate tritiyadishu, halarishu vibhaktishu, ashadeshaha bhavati. Actually, Ashadesha will apply. Idam Anvadesha, Ashadesha, Sutiyada, Vishwena, Ashadesha, Bhavati. Into Ashadesha, Kriteti, Rupe, Vishweha, Nadrishwate. There is no difference in form. There is a difference in Svara. Because Idam Anvadesha, Anudaptaha, Vishwate, and Anudaptakam Bhavati, into Rupe, Vishweha, Nadrishwate. So whether it is the Anvadesha or not, Rupa will remain the same. Akashkatsitu. Next slide. Musarantaha Pullingaha Idakam Shabdaha Mustataha Idam Shabdaheva Satya Takatkasya Kim Bhavati Anvadeshe Enam Enau Enan Enena Enayoha Iti Bhavati Anyatra Idam Shabdavat Rupani Bhavanti Anvadeshe Abhyam Ephihi etc. So the original is Imakam Imakau Imaka Nimakena Imaka Abhyam Imakaihi etc. Anvadeshe Kritetu Enam enau enan enena abhyam ephihi. Asmai abhyam ephyaha. Ityadihi rupani anvadeshe bhavanti. Anapekaha haliropaha iti sutrayoha pravrittihi nasti kevalasya idakam shabdasya. Anvadeshe tu tayoha sutrayoha pravrittihi nasti ash ityadeshe krute tadrishameva rupam sampadyate.
I don't see any raised hands, Swamiji, but I have a question.
Yes.
So this Anvadesha, whether it is Idakam or Idam, it can be, for any Vibhakti, it will follow the Idam Shabda. Is that what you are learning?
Yeah, right. The form will be like Idam Shabda. I mean, for except in Vipiyata and O, that will be Enadesha. It is different for both.
And only for Dutiya and Oath and this thing, we'll have the Ena form. Otherwise, it will just
exactly. Form. It will be like the Idam Shabda.
I just want to ask everybody, can they see the presentation clearly or is there any part not visible or something like that? Please let me know. Thanks, Professor.
Any other questions? Okay. That's very good. Next slide. Makarantaha Pullingaha. Makarantaha Pullingaha Samaptaha. So we're coming in order of Maheshwara Sutra. Ayurat Lang Nya Ma. Nakarantaha na santi, makarantaha adhitaha, nakarantaha na santi. Savarga panchamaksharena, savarga panchamakshara mante, iti sabdaha na santi, nyamanga nakarantaha pullingaha, trapi vasutaha na santi, कथञ्चित् उत्पाद्यन्ते सम्भो थियोरेटिकलि मीनिङ्ग् आफ् अ वर्ड् इट्स् नाट् अ पाप्युलर् वर्ड् आर् अ नेचुरल् वर्ड् गणयतेः विच्छित् गणसङ्ख्याने इति सौरादिकः धातुः दशमगणीयः धातुः सुष्ठु गणयति सम्यक् गणनां करोति इत्यर्थे तु उपसर्गपूर्वकात् गण धातोः गण इति अकारान्तः धातुः वन् आफ़् द स्पेशल् धातु इट्सेल्फ् इस् अकारान्त इन् अदर् केस् जनरलि द अकार यत् मुद इव ओन्लि मुद् जनरलि द धातु वित् अट् एण्डिङ्ग् इन् अकार आर् वेरि वेरि फ्यू गण इति अकारान्तः धातुः पार्थेणिच् प्रत्ययः क्रियते सर्वेषां दशमगणीयानां धातूनां चोरयति गणयति पूजयति कथयति सर्वेषाम् अय इति यत् क्रियते सः वस्तुतः निच् प्रत्ययः स्वार्थे निच् प्रत्ययः भवति दशमगणीयानां चौरादिकानां धातूनां प्रत्यापकाशरूप इति तीर्थं सूत्रं तेन स्वार्थे निच् प्रत्ययः भवति निच् प्रत्यये कृते धातोः अकारस्य लोपः अतो लोपः इत्यनेन लोपः तु गण इत्यस्ति इदानीम् अस्मात् विच् प्रत्ययः क्रियते कर्तरि विच् सुष्ठु गणयति इति कर्तरर्थे अन्येभ्योऽपि दृश्यन्ते इति सूत्रेण विच् प्रत्ययः विच् प्रत्यये वकारः एव शिष्यते सुगण इ व् इत्यस्ति इदानीम् अस्य इकारस्य निचः लोपो भवति अनेरनिति इति सूत्रेण निचः लोपे सुगण व् इत्यस्ति एस् यूज्वल् वकारस्य वेरपुष्पस्य इत्यनेन लोपे सुगण इति प्रातिपदिकं कृतसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा अस्ति सुगण् इति नकारान्तं प्रातिपदिकं किं भवति ततः कार्यम् इति किमपि नास्ति अस्य सुगण् सुप्रत्ययः लुप्यते संज्ञाभ्यः इति सूत्रेण ततः औ सुगण् औ सुगणौ सुगण् षट् सुगणः नेक्स्ट् लैन् सुगण् सुगणौ सुगणः तत्र विशिष्य कार्यं किमपि नास्ति अन्ते सप्तमी बहुवचने सुप् प्रत्यये कृते सुगण् सु इत्यस्ति तत्र गुणोः कुप् षरि इति सूत्रं बहु प्रागरिहितं पञ्चसन्धिप्रकरणे मकारणकारयोः शरिपरे षकारे षकारे पकारे वा परे कुक् तुक् णकारस्य कुक् आगमः भवति णकारस्य तुक् आगमः भवति तुक् आगमे कृते अयं णकारः सुगण् सु कृते णकारस्य तुक् इति आगमः कित्वात् अन्ते भवति सुगण् सु इति भवति अस्य पकारस्य त्रयोद्वितीयाश्रीपौष्करसादेरिति वाक्यम् इति वार्तिकेन विकल्पेन ठकारः विधीयते सुगागमे कृते तस्य च ठकारे कृते सुगण्ठसु इति रूपं फस्ट् रूपं सुगागमे कृते तस्य ठकारे न कृते त्रयोद्वितीयाः इत्यपि वैकल्पिकं वार्तिकं गणोः पुत्रक्षरि इति युगागमोपि विकल्पः वेन् यु डु बोत् सुगागमे ठकारादेशे उभयोः कृतयोः सुगण्ठसु इति रूपं सुगागमे कृते द्वितीयादेशे अकृते सुगण्ठसु इति रूपम् उभयोः अकृतयोः नीदर् टुक् नार् ठकार इह सुगण्ठु रूपत्रयं भवति सप्तमी बहुवचने स एव विशेषः तद्दर्शयितुमेव इदं रूपम् अन्यथा कोऽपि विशेषः नास्ति रूपे इदानीं विच् प्रत्ययः कृतः रिमेम्बर् द निष्पत्ति गणधातोः निगन्तस्य विच् इति प्रत्यये कृते सुगण् इति रूपं कृतं क्विप् प्रत्यये कृते किं भवति इति प्रश्नः विच् प्रत्ययः अपि कर्तव्ये अस्ति तस्मिन्नेव अर्थे क्विप् इति प्रत्ययः अपि अस्ति सुगण् इत्यस्मात् सुगण् इ इत्यस्मात् क्विप् प्रत्यये कृते किं भवति इति चेत् अत्रापि नेरनति इति नेहलोपः इन् अडिशन् अनुनासिकस्य क्विधनोः किमिति इति सूत्रमस्ति अनुनासिकान्तस्य क्वि धनोः क्विप् प्रत्ययस्य इति क्विप् प्रत्यये परे उपधायाः दीर्घः भवति तेन सुगाण् इति दीर्घः श्रूयते वेन् यु डु क्विप् द सेम् धातुः प्रशिष्ठुगण इति इत्यर्थेव उगाण इति रूपं सिद्ध्यति, उपधायाः निध्येते. तत्र किं भवति, रूपे विशेषः नास्ति, प्रक्रियायां विशेषः नास्ति. सुगाण् सुगाणो सुगाणः, एवमेव सप्तमी बहुवचने सुगाण्ठु सुगाण्ठु सुगाण्ठु. So this is Makaranta, as I said, for theoretical input, this is story. So next, Makaranta ha pullingaha, Nyamayana na. Makaranta ha pullingaha, bahavaha tanti. So Makaranta from the big part of Ananta pullinga sakarana. Bahuvidhaha, shabdaha tanti. Satradu, asyantam prasiddhaha, rajan. लकारान्तः पुल्लिङ्गः राजन् शब्दः. परत्वात् उपधादीर्घः स्त्रीयादिलोपः अथवा मनोपः इत्युच्यते. रिक्तः राजन् सुप्रत्ययः, सर्वनामस्थाने च असम्बुद्धौ इत्यनेन उपधायाः दीर्घः. नम्बर् नान्तस्य उपधायाः दीर्घः स्यात् असम्बुद्धौ सर्वनामस्थाने परे इति सूत्रार्थः. स्टडी दिस् लाट् आफ् थिङ्ग्स्. पक्षि पक्षिशब्दे पक्षिरनङ् आदेशे कृते पखन् पखन् इति जाते पखान् पखा इति रूपम्. स्टडी दिस् लाट् आफ् थिङ्ग्स्. मकारान्तस्य उपधायाः दीर्घः भवति असम्बुद्धौ सर्वनामस्थाने परे. तेन दीर्घे कृते राजान् परत्वात् उपधादीर्घः दृष्टकोत्थः निर्धि. ततः हल्याभ्यो दीर्घादित्यनेन सुलोपः राजान् न लोपः प्रातिपदिकान्तस्य. प्रातिपदिकसम्यकं यत् पदम् अनन्तस्य लोपः स्यात् इत्यनेन नकारस्य लोपे राजा. परत्वात् उपधादीर्घः कोत्थः राजा राजन् इत्यस्ति. तत्र हल्याभ्यः इत्यनेन सुलोपः करणीयो वा सर्वनामस्थाने च असम्बुद्धौ इति उपधादीर्घः करणीयो वा इति प्रश्नः. सुलोप और् उपधादीर्घः परत्वाद् उपधादीर्घः सर्वनामस्थाने च असम्बुद्धौ इति षष्ठाध्यायस्य चतुर्थपादे अस्ति. हल्याभ्यः इति सूत्रं तु प्रथमपादे. अतः आदौ उपधादीर्घः क्रियते, ततः हल्यादिलोपः अथवा न लोपः. So that is the prakriya, since it is in just one sentence, Raja. Prathamadhattva vikavachane Raja. He Rajan, so it is Ambuddhau kim bhavati. Sarvanamasthane cha asambuddhau, it is Padhari ghanasthi. He Rajan, so it is Alnyabhyaha ityanena sulopaha. He Rajan. Idanim astrati nalopakrati parikantasya iti praapnoti. प्रातिपदिकसमकं पदम् अस्ति तस्य तदन्तस्य नकारस्य लोपः प्राप्नोति. द फार्म् इस् हे राजन्. वि डु नाट् वाण्ट् नकार टु बि डिलीटेड्. सूत्रमस्ति न नि सम्बुद्ध्योः पदद्वयं न नि सम्बुद्ध्योः न लोपः प्रातिपदिकान्तस्य इति अनुवर्तते. अतः नस्य लोपः न स्यात् नौ सम्बुद्धौ स्यात्. सो नकार आफ् दिस् वेन् एवर् यु हाव् कण्डीशन् फार् नलोपः प्रातिपदिकान्तस्य द नकार विल् नाट् बि डिलीटेड् इफ् इट् इस् फालोड् बै नि प्रत्यय आर् इफ् इट् इस् सम्बुद्धि. नि प्रत्यये सम्बुद्धौ च परतः नकारस्य लोपो न भवति, तेन हे राजन् इति रूपं. सम्बुद्धौ परतः न लोपः निषिद्धः, तेन हे राजन् इत्येव रूपम्. इदानीं प्रश्नः नि इत्यस्य सूत्रे नौ परतः अपि न लोपः नास्ति इति तस्य किम् उदाहरणम् इति प्रश्नः. द क्वश्चन् अरैसस् बिकास् नि प्रत्यये परे ते सः राजन् इ कलोपस्प्रातिपदिकान्तस्य इत्यस्य प्रवृत्तिरेव नास्ति. बिकास् द सूत्रात् प्रातिपदिकसम्यकं यत् पदं पदसंज्ञा अपि भवेत्. सम्बुद्धौ सुप्तयन्तं पदम् इति पदसंज्ञा अस्ति. नि प्रत्यये परे पदसंज्ञा न भवति. इफ् इट् वर् हलादिप्रत्यय राजन् भ्याम् इति चेत् राजभ्याम् इति तत्र पादिशसर्वनामस्थाने इति पदसंज्ञा अस्ति, तेन नकारस्य लोपो भवति. नि प्रत्यये परे यतिभम् इत्यनेन भसंज्ञा भवति. सिन्स् इट् इस् एन् अजादिप्रत्यय Bhasamya will overrule padasamya. So when a nakarantha word is followed by ni, it will never have padasamya. Padasamya nasti chete. Nalokasratikarikantasya chete pravrtti rapi na bhavati. Yadi pravrtti hi eva nasti, tarhi kimartha nishedha. Why are you preventing it? Anyway, nakara loka will not happen. Padasamya nasti chetaha. Nalokasya pravrtti reva nasti. Kimartham nishidhyate. Nalopaha. It is prashna. Tada uchyate. Nau tu chandasi udaharanam. Chandasi vede udaharanam labhyate. Kim? Upam suluk. Iti yeha luk. Nishedha samarthya pratyaya lakshanam. Parame vyoman. Parame vyoman pratishthita. It's a famous line from Taittiriya. Parame vyomni ityarthaha. In parama vyoma. Vyoman iti nakarantaha. Astataha tattva saptami bhavet. Vyomni iti saptami bhavet. Into tu ni prateyaske lopaha bhavati. Tupam suluk purva savarna chayad adhyaya janaha iti sutramasti. Thandasi in Veda, several times you see that the sup pratyas are deleted. Matram ni ityaske lopaha asti. Vyoman i ityaske ni prateyaske lopaha. Prateyaske lopaya idanim Vyoman itseva asti, tasya supyantam padamityanena parasamyato asti. So atra nau parataha, idanim atra lopaha neshyate. It is prashna. Tadartham nani sambuddhyoho iti nishedhaha. To prevent nakara lopa here, after ni has been deleted, the sutra says nani sambuddhyoho. Now there will be another question here. Vyoman e itseva. Nakarasya lope krite, it is, as I am saying, it is look. Supam su look, look. Even if you say nani sambuddhyoho, the ni is not here. Nau pare nasya lopo nasya adhikrityate. Ni iti tu luka luptaha, which has been deleted by look. Na lumatangasya. Lumata lupte tannimittam angakaryam na bhavati iti uchyate. So, how are you, even when you say nani sambuddhyoho, atra nishedhaha katham. Ni pratyaha eva nasti kila. Nishedha samarthyat pratyaya lakshanam. Vastutaha atra pratyaya lakshanam na bhavati. Kintu nishedha samarthyat. Nani sambuddhyoho iti nishedhaha asti. Iti samarthyat atra pratyaya lakshanena ni pratyaha asti. Iti matva. Nani sambuddhyoho iti nalopaha nishidhyate. So therefore, in parame vyoman. To prevent nakara lopa in parame vyoman. Nani sambuddhyoho iti astra. Ni ityasya grahanam ityate parame vyoman iti nakaraha shruyate nakarasya lopaha nasti. So narati vartikam asyata same case. I think we'll stop here. Agrima kakshayam anuvartaya. Any question?
Don't see any raised hands on this.
Okay. So tomorrow we'll continue with Radhan and other Nakaram. Tomorrow also I think it will be the same case. I'll have only audio. I'll send you the presentation. So you can
okay.
Thank you.
Thank you for choosing Reliance. Goodbye.
The organizer.